इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। लोकसभायां महिला आरक्षण विधेयकेषु तीक्ष्णं वादविवादः प्रचलति। राहुल गांधी, राजनाथ सिंहः, किरेन रिजिजू च स्वस्व दृढमतं स्थापितवन्तः। नारी शक्ति वन्दन अधिनियमः प्रवर्तितः। नरेन्द्र मोदी संसद सदस्यान् संशोधनस्य समर्थनं कर्तुं प्रार्थितवान्। पश्चिमेशिया संकट काले एलपीजी इत्यस्यापूर्तिः स्थिरः अस्ति इति सर्वकारेण उक्तम्। ईरान देशाच्च 23 शताधिकाः भारतीयाः निर्वासिताः। पश्चिम बंगाल राज्ये, तमिलनाडु राज्ये च निर्वाचन प्रचारः तीव्रः अभवत्। अपि च हरिवंश नारायण सिंहः राज्यसभायाः उपसभापतित्वेन तृतीयवारं पुनः निर्वाचितः। अथ वार्ताः विस्तरेण। लोकसभायां संसदि राज्य विधानसभासु च महिलानां सहभागित्वं वर्धितुं त्रिषु प्रमुखेषु विधेयकेषु चर्चा पुनः समारब्धा, येन सर्वकारस्य विपक्षस्य च मध्ये तीक्ष्णं वाक्प्रहारम् आरब्धम्। विपक्षस्य नेता राहुल गांधी इत्येषः प्रस्तावितस्य संरचनायाः निन्दाम् अकरोत्, येन निर्वाचनस्य परिदृश्यं परिवर्तितुं शक्यते, उपेक्षितानां समुदायानां च हानिः भविष्यति। अध्यक्षः ओम बिरला वर्यः सदस्यान् विधिसीमायाम् एव टिप्पण्यादि कर्तुम् उक्तवान्। रक्षामन्त्री राजनाथ सिंहः, संसदीय कार्यमन्त्री किरेन रिजिजुः च गांधिनः भाषणम् अनुचितम् उक्तवन्तौ। केन्द्रीयमन्त्रिणः एचडी कुमारस्वामी, संध्या रे, हेमा मालिनी इत्यादयः भाजपा नेतारः च विधेयकानां समर्थनं कृतवन्तः। तान् महिला सशक्तिकरणार्थं प्रमुखं पदाक्षेपमिति वर्णितवन्तः। कनिमोझी करुणानिधि, शशि थरूरः, कल्याण बनर्जी इत्यादयः विपक्षस्य नेतारः आरक्षणं परिसीमनेन सह योजयितुं तस्य संघीय प्रभावानां विषये च चिन्तां प्रकटितवन्तः। अन्याः सदस्याः पीवी मिथुनः, डिम्पल यादवः, हरसिमरत कौर बादलः च न्यायाधारित कार्यान्वयनस्य, महिला सशक्तिकरणस्य विषये विस्तृत ध्यानस्य च आवाहनं कृतवन्तः। मन्त्री राजीव रंजन सिंहः, राज्यमन्त्री अनुप्रिया पटेलः च सर्वसमावेशक विकासस्य भागत्वेन अस्य उपक्रमस्य समर्थनं कृतवन्तौ। वादविवादः अधुनापि प्रचलति। नारीशक्ति वन्दन अधिनियमेति नाम्ना प्रसिद्धः संविधानस्य 60-तमः संशोधनः अधिनियमः 2023 प्रवृत्तः, येन लोकसभायां तथा दिल्लीं समेत्य राज्यविधानसभासु महिलानां कृते तृतीयांशारक्षणः प्रदत्तः अस्ति। सामाजिकान्तर्जालीये पटले विविधेषु क्षेत्रेषु महिलानां योगदानं प्रशंसयन् श्रीनरेन्द्रमोदी अवदत् यत् स्त्रीशक्तिः सशक्तं भारतं निरूपयति। संसदीय कार्यमन्त्री किरेन रिजिजुः उक्तवान् यत् अस्याः अधिसूचनायाः उद्देश्यं दीर्घकालात् प्रतीक्षितानाम् उपबन्धानां कार्यान्वयनमस्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना सर्वान् संसत्सदस्यान् नारीशक्ति वन्दन अधिनियम संशोधनस्य समर्थनं कर्तुम् आग्रहः कृतः। तत् महिलानां न्यायप्रतिनिधित्वं सुनिश्चितं कर्तुं महत्वपूर्णं पदाक्षेपम् इति सः अवदत्। सामाजिकान्तर्जालीये पटले लिखिते एकस्मिन् सन्देशे सः उक्तवान् यत् लक्षोपलक्षाः महिलाः संसदः भावान् निर्णयाञ्च पश्यन्ति। सः सर्वान् पक्षान् अस्य प्रस्तावस्य पक्षे मतदानं कर्तुम् आहूतवान्। श्रीमोदी अवधानं प्रदत्तवान् यत् अस्य संशोधनसम्बद्धानां समाह्वानानां निराकरणं कृतमस्ति, तथा च देशस्य अर्धजनसंख्यायाः कृते तेषां न्यायप्रतिनिधित्वं सुनिश्चितं कर्तुम् अधुना समयः आगतः। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। सर्वकारेण उक्तं यत् पश्चिम एशिया स्थित्या सम्बद्धाः बाधायाः सत्सु अपि सम्पूर्णे भारते गृह्य एलपीजी आपूर्तयः स्थिराः एव सन्ति। पेट्रोलियम सचिवः सुजाता शर्मा इत्येषा अकथयत् यत् प्रतिदिनं प्रायः 50 लक्ष सिलेण्डर इत्यस्य वितरणम् अभवत्, तथा च अधिकांशानि आरक्षणानि वितरणानि च अधुना डिजिटली कृतानि सन्ति।
घरेलू एलपीजी के संबंध में किसी डिस्ट्रीब्यूटर पर कोई ड्राई आउट रिपोर्टेड नहीं है। कल भी हमने लगभग 50 लाख से अधिक घरों में एलपीजी का सिलेंडर पहुंचाया है। हमारा ऑनलाइन बुकिंग 98% है और डिलीवरी ऑथेंटिकेशन कोड के साथ डिलीवरी लगभग 93% है। कमर्शियल एलपीजी भी 70% तक रेस्टोर्ड है और कल लगभग 8,200 टन कमर्शियल एलपीजी की भी सेल हुई है।
सा अग्रे अवोचत् यत् वाणिज्यिक एलपीजी आपूर्तयः प्रायः 70% यावत् पुनः सम्यगभवत्, यत्र ऑटो एलपीजी विक्रयणं वर्धितः, लघु सिलेण्डर इत्यस्य च नियमितं वितरणं प्रचलति। विधानसभा निर्वाचनात् प्राक् प्रमुखानि राजनैतिकदलानि पश्चिमबंगराज्ये तमिलनाडुराज्ये च स्वस्व निर्वाचन प्रचारं द्रुतगत्या कुर्वन्ति। पश्चिमबंगराज्ये तृणमूल कांग्रेस दलस्य वरिष्ठा नेत्री तथा मुख्यमंत्री ममता बनर्जी अद्य उत्तरबंगस्य कूचबिहार जनपदे दलस्य प्रत्याशिनः समर्थने जनसभाम् अकरोत्। जनसभाम् सम्बोधयन्ती सुश्री बनर्जी अवदत् यत् भाजपेति दलं नागरिकाणां कल्याण विषये न चिन्तयति। सा दुर्गापुर कोलकाता नगरयोः सार्वजनिक सभामपि सम्बोधयिष्यति। अपरपक्षे भाजपा नेता महाराष्ट्रस्य मुख्यमंत्री देवेन्द्र फडणवीसः अपि दलस्य प्रत्याशिनः समर्थने निर्वाचन प्रचारे भागम् अगृह्णात्। भाजपेति दलस्य नेता असम राज्यस्य मुख्यमंत्री हेमंता बिस्वा शर्मा अपि उत्तर दिनाजपुर जनपदस्य हेमताबाद क्षेत्रे पथप्रदर्शनं कृतवान्। वरिष्ठः सीपीआईएम नेता मोहम्मद सलीमः अपि उत्तरबंगस्य दार्जिलिंग अलीपुर द्वार जनपदयोः दलस्य प्रत्याशिनः समर्थने जनसभासु भागं ग्रहीष्यति। अत्रांतरे आयकर विभागः कोलकाता नगरे तृणमूल कांग्रेस नेतृभिः सह सम्बद्धेषु स्थानेषु अन्वेषणम् अकरोत्, यत्र दलस्य प्रत्याशी देवाशीष कुमारः, श्रमिक संघस्य नेता कुमार साहः च सम्बद्धौ आस्ताम्। तमिलनाडुराज्ये प्रचण्ड उष्णतायामपि निर्वाचन प्रचारः अनुवर्तते। हरिवंश नारायण सिंहः राज्यसभायाः उपसभापतिपदस्य कृते निर्विरोधं तृतीयवारं निर्वाचितः। सदनस्य नेता जेपी नड्डा प्रस्तावम् उपस्थापितवान्। तदा नरेन्द्रमोदी श्रीहरिवंशस्य अभिनन्दनं कृत्वा उक्तवान् यत् तस्य अनुभवेन सभायाः कार्यप्रवृत्तिः सुदृढः अभवत्। विपक्षस्य नेता मल्लिकार्जुन खड़गे, तिरुचि शिवा, संदोष आनंद, संदोष कुमारः इत्यादयः अन्ये सदस्याः अपि शुभाशयाः प्रेषितवन्तः। हजारीबागे सुरक्षा सेनया सह जाते संघर्षे उपक्षेत्र सेनापतिना सह देव महतो इत्यनेन सह चत्वारः माओवादिनः मारिताः। महतो इत्यस्य उपरि 15 लक्ष रूप्यकाणां पुरस्कारस्य घोषणा आसीत्। कोबरा सैन्यदलस्य जनपदारक्षकाणां च संयुक्ताभियाने सशस्त्राणि, माओवादिनः सामग्र्यः च प्राप्तानि। एसपी सुमित कुमार अग्रवालेन उक्तं यत् अन्येषाम् अभिज्ञानं प्रचलति। सुरक्षाबलैः समीपस्थेषु अरण्येषु पर्वतीयेषु च क्षेत्रेषु अन्वेषणं क्रियते। महिला क्रिकेट स्पर्धायाम् अद्य डर्बन नगरस्य किंग्स मीड क्रीडांगणे पंच क्रीडा श्रृंखलायाः प्रथमायां 20-20 क्रीडायां भारतं दक्षिणाफ्रीका दलेन सह स्पर्धिष्यति। एषा क्रीडा भारतीय समयानुसारं सायं 9:30 आरभ्यते। अग्रिमा क्रीडा रविवासरे तस्मिन्नेव स्थाने भविष्यति। इति वार्ताः।